इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। विदेशमन्त्री डॉ एस जयशंकरः भारत पाकिस्तान देशयोर्मध्ये तृतीय पक्षस्य मध्यस्थतां निराकृतवान्। असौ सबलतया प्रख्यापितवान् यत् नवदिल्ल्याः इस्लामाबादेन सह व्यवहारः पूर्णतया द्विपक्षीयो भविष्यति। नवदिल्ल्याम् एकस्मिन् कार्यक्रमावधौ वार्ताहरैः समं सम्भाषमाणः डॉ जयशंकरः उक्तवान् यत् भारतेन स्पष्टीकृतं यत् पाकिस्तान देशेन सह चर्चार्थं केवलं एका वार्ता अवशिष्टा वर्तते, सास्ति पाकिस्तानाधिकृत जम्मू कश्मीरे अवैधरूपेण व्याप्तस्य भारतीय क्षेत्रस्य रिक्तता इति। विदेशमन्त्रिणा अग्रे प्रोदीरितं यत् सिन्धुजलसन्धिः तावत् स्थगितो भविष्यति यावत्पर्यन्तं पाकिस्तानदेशः सीमापारातंकवादे विश्वसनीयम् अवरोधनं नैव स्थापयिष्यति इति। रक्षामन्त्री राजनाथ सिंहः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी आतंकवादं विरुध्य भारतस्य नीतिं नवीनपद्धत्या परिभाषितवान् तथा च भारत भूमौ दुरापादितं किमपि आक्रमणं युद्धस्य कार्याचरणे परिगणितं भविष्यति। असौ सिन्दूराभियानम् इति वृत्ते आतंकवादस्य विरुध्य भारतद्वारा कृतं बृहत्तमं कारणं कथितवान्।
ऑपरेशन सिंदूर आतंकवाद के खिलाफ भारत द्वारा चलाई गई अब तक के इतिहास की सबसे बड़ी कार्रवाई है। 35-40 वर्षों से भारत सरहद पार से चलाए जा रही आतंकवाद का सामना कर रहा है। आज भारत ने पूरी दुनिया को यह साफ कर दिया है कि आतंकवाद के खिलाफ हम किसी भी हद तक जा सकते हैं।
अवधेयास्पदं वर्तते यत् सैन्यबलस्य 15 कॉप्स बादामीपा कॉन्टिनमेंट इत्यत्र सैनिकान् संबोधयन् असौ भारतीय सशस्त्रबलानां शूरतां वीरताम् अवधानपूर्वकं कृतानि बलयुतानि कार्याण्यपि प्रशंसितवान्। प्रशासनेन तुर्कीये देशस्य ग्राउण्ड हैंडलिंग फर्म सेलेबी एयरपोर्ट सर्विसेज इंडिया प्राइवेट लिमिटेड इत्येतस्य सुरक्षा स्वीकृति तात्कालिकरूपेण निरस्तीकृता। प्रसारिते आदेशे नागरिकोड्डयन सुरक्षा विभाग बीसीएएस इति सूचितवान् यत् अयं निर्णयः राष्ट्रिय सुरक्षायाः कल्याणाय गृहीतो विद्यते। बीसीएएस इति दिल्ली मुंबई बेंगलुरु गोवा कोचि कन्नूर विमानपत्तन स्थानकेषु विमान संचालनं प्रैष्य कार्याणि च समेत्य विभिन्नानां सेवानां प्रबन्धन कार्यं निष्पादयतीति। प्रशासनेन नैकासां वार्तावाहिनीनां सामाजिक सन्देश पटलानां च तानि प्रतिवेदनानि निरस्तीकृतानि येष् अभिकथनानि निहितानि आसन् यत् विदेशमन्त्री डॉ एस जयशंकरः उक्तवान् आसीत् यत् चीनदेशीयैः उपग्रहैः पाकिस्तानदेशस्य सहायता कृतास्ति। पत्र सूचना कार्यालयस्य फैक्ट चेक इति सत्यसूचनान्वेषण विभागः स्पष्टीकृतवान् यत् विदेशमन्त्रिणम् अनुचित विधिना प्रस्तौति तस्य च इदं वक्तव्यं नैवासीत्। भारत यूरोपीय संघौ सागरीयापशिष्ट प्लास्टिक पदार्थान् दूरीकर्तुम् अपशिष्टैः हाइड्रोजन इतीदं निर्मातुं द्वे प्रमुखानुसन्धाने नवाचारोपक्रमान् च आरब्धवन्तौ। एते उपक्रमाः 190 कोटि रूप्यकाणां निवेशेन सह समारब्धाः। विदेशमन्त्री डॉ एस जयशंकरः ह्यः अफगानिस्तान देशस्य विदेश विषयक मन्त्रिणा मावलावी अमीर खान मुक्तकी इत्यनेन सह वार्तालापं कृत्वा पहलगामातंक्याक्रमणस्य निन्दाम् अकरोत्। डॉ जयशंकरः भारत पाकिस्तान देशयोर्मध्ये मिथ्या निराधार प्रतिवेदनानां माध्यमेन अविश्वासं जनयितुं सद्य एव कृतप्रयासानां श्रीमुक्ति इत्येतस्य दृढतया निराकरणस्य स्वागतमपि अकरोत्। चतुरंग क्रीडायां भारतीय शीर्ष क्रीडकः निहाल सरीनः यूएई इत्यत्र आयोजितायां एशियाई चैंपियनशिप प्रतिस्पर्धायां उपविजेता जातः। रजत पदकस्य प्राप्तानन्तरमपि निहाल सरीनः आगामिनि एफआईडीई इत्येतस्मिन् चतुरंग विश्वचषके स्थानं प्राप्तवान्। इयं प्रतिस्पर्धा वर्षान्ते भारते आयोजयिष्यते इति वार्ताः।